गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय सदिविश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् हेत्वाभासस्य पुनर्चिन्तनं जायमानमस्ति तत्र गते वर्गे उदाहरणद्वयम् अस्माभिः दृष्टं पर्वतः वह्निमान् जलात् इति एकम् उदाहरणं शब्दः नित्यः कृतकत्वात् इति अन्यत् उदाहरणम् अस्तु तर्हि सर्वे कृपया स्प्रेड्शीट् उद्घाटयन्तु तत्र शब्दः नित्यः कृतकत्वात् इत्यत्र कः दोषः कल्पितः अस्ति इति चेत् नित्यत्वाभावाभावव्यापकीभूताभावप्रतियोगित्ववत् कृतकत्वम् इति एव दोषः नित्यत्वाभावाभाव इत्युक्ते नित्यत्वेन व्यापकीभूतः व्यापकः यः जातः अभावः तत्प्रतियोगित्वं कृतकत्वे अस्ति प्रकृतहेतौ कृतकत्वे अस्ति इति कृत्वा तर्हि नित्यत्वाभावाभावव्यापकीभूतकृतकत्वाभावः इत्युक्ते यत्र यत्र नित्यत्वाभावाभावः तत्र तत्र कृतकत्वाभावः इति व्यतिरेकव्याप्तिः अत्र नित्यत्वाभावाभावः इत्युक्ते नित्यत्वं यत्र नित्यत्वं तत्र कृतकत्वाभावः इति व्यतिरेकव्याप्तिं स्वीकृत्य अत्र सम्पादितमस्ति किन्तु साध्याभावत् न साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इति व्यतिरेकव्याप्तिलक्षणं स्वीकृत्य पुस्तके प्रदर्शितमस्ति तदनन्तरं विद्याधिग्रन्थकारेण किं कृतम् इति चेत् एतद् दोषम् अस्वीकृत्य तत्र सामान्यदोषः नित्यत्वाभावव्याप्यकृतकत्ववत् शब्दः इति दोषं स्वीकृत्य तेन प्रतिपादितमस्ति तत्सर्वं मया स्थापितमस्ति अत्र इदानीं पश्यन्तु सर्वे J18 इत्यत्र वार्ताद्वयम् अत्र मया स्थापितमस्ति तत्र द्वितीयमस्ति नित्यत्वाभावव्याप्यकृतकत्ववत् शब्दः इति दोषः तदेव प्रतिबन्धक ज्ञानस्य आकारः नित्यत्व अभावव्याप्यकृतकत्ववत् शब्दः इत्युक्ते किम् इति चेत् शब्दः किं विशिष्ट कः विशिष्टः शब्दः इति चेत् कृतकत्ववत्त्वेन विशिष्टः शब्दः इत्युक्ते यस्मिन् शब्दे कृतकत्वम् अस्ति तादृशशब्दः शब्दः कृतकम् इति कृत्वा कृतकत्ववत् शब्दः पुनः तत्र कृतकत्वं कीदृशम् इति चेत् नित्यत्व अभावेन व्याप्यः अस्ति अनित्यत्वेन व्याप्यः कृतकत्वं तर्हि यत्र यत्र कृतकत्वं तत्र तत्र अनित्यत्वम् इति अन्वयव्याप्तिं स्वीकृत्य अत्र दोषः कल्पितः अस्ति अतः नित्यत्व अभावव्याप्यकृतकत्ववत् शब्दः इति प्रतिबन्धकज्ञानं तदा प्रतिबन्ध्यज्ञानं किं भवति भावरूपं भवेत् अतः नित्यत्वव्याप्यकृतकत्ववत् शब्दः इति प्रतिबन्ध्यज्ञानं भवति तत्र समानविशेष्यं शब्दः विशेष्यतावच्छेदकं शब्दत्वं प्रतिबन्धज्ञाने प्रतिबन्ध्यज्ञाने प्रकारः अस्ति नित्यत्वव्याप्यकृतकत्वं प्रतिबन्धकज्ञाने प्रकारः अस्ति नित्यत्व अभावव्याप्यकृतकत्वं तदा प्रतिबन्ध्यज्ञाने प्रकारत अवच्छेदकः किम् इति चेत् नित्यत्वव्याप्यकृतकत्वत्वं वस्तुतः अत्र कृतकत्वत्वम् इति वदामश्चेत् एकनिमिषम् अत्र नित्यत्वत्वम् इति एव प्रायः वक्तव्यं नित्यत्वत्वं न तु नित्यत्वव्याप्यकृतकत्वं नित्यत्वत्वम् इति एव नित्यत्वत्वम् एकनिमिषं परिष्करोमि नित्यत्वत्वम् अत्रापि नित्यत्वत्वम् एव भवेत् नित्यत्वं तर्हि तद्बद्धा बुद्धिप्रति तदभाववत्ता निश्चय तदभावव्याप्यवत्ता निश्चयमुद्रः इत्युक्ते तदभाववत्ता निश्चयमुद्रः तदभावव्याप्यवत्या निश्चयमुद्रयः अनयोः मध्ये कः भेदः इति चेत् भाववस्तुना कश्चित् व्याप्यः भवति चेत् तदा तदभाववत्ता निश्चया इति वक्तव्यम् तद् अभावव्याप्यः इत्युक्ते अभावेन व्याप्यः अस्ति चेत् तदा तदभावव्याप्यवत्ता निश्चयमुद्रया इति वक्तव्यम् अतः नित्यत्व अभावव्याप्यपृथकत्वम् इति तद् अभावव्याप्यवत्ता निश्चयमुद्रया अत्र अभावः अस्ति खलु तद् अभावव्याप्यवत्ता निश्चयमुद्रया निश्चयः एव मुद्रा भवति तर्हि हेत्वाभासलक्षणसमन्वयः कथं करणीयम् इति नित्यत्व अभावव्याप्यकृतकत्वम् इति दोषः यत्पदेन सङ्गृह्य तत्त्वं नित्यत्वाभावव्याप्यकृतकत्वम् इति ज्ञाने अस्ति इति तस्य परामर्शप्रतिबन्धकत्वम् अत्रापि प्रतिबन्धकत्वं कुत्र जायते इति चेत् परामर्शः न जायते यदा वयं हेतोः विषये चिन्तनं कुर्मः तदा परामर्शस्य एव बाधा भवति न तु अनुमानस्य अस्तु तत्त्वं तस्मिन् पदार्थे नित्यत्वाभावव्याप्यकृतकत्वे अस्ति इति दोषरूप हेत्वाभासलक्षणसमन्वयः तर्हि समूहालम्बनज्ञानं किं भवेत् इति चेत् नित्यत्वाभावव्याप्यकृतकत्वं कृतकत्वं च इति अस्तु तर्हि अत्र परिष्कर्तव्यं वा नित्यत्वं नित्यत्वम् इति परिष्कर्तव्यं नित्यत्व यथा पूर्वमासीत् नित्यत्वव्याप्यकृतकत्वं नित्यत्वव्याप्यकृतकत्वम् इति एव भवेत् वा इति चिन्तयन्नस्मि प्रायः नित्यत्वव्याप्यकृतकत्वम् इति एव भवेत् तर्हि अत्र समूहालम्बनज्ञानं नित्यत्व अभावव्याप्यकृतकत्वं कृतकत्वं च वस्तुतः अत्र समूहालम्बनज्ञानस्य आवश्यकता नास्ति किमर्थम् इत्युक्ते अत्र नित्यत्व अभावव्याप्यकृतकत्वम् इत्यत्र कृतकत्वम् इति प्रकृतहेतुः एव अस्ति विशिष्टं सामान्ये अन्तर्भूतं भवति इति ज्ञायेन यथा नीलघटः अपि घटः तथा नित्यत्वव्याप्य नित्यत्व अभावव्याप्यकृतकत्वमपि कृतकत्वे अन्तर्भूतमस्ति इति कृत्वा वस्तुतः समूहनामनज्ञानस्य आवश्यकता नास्ति तथापि यथा पूर्वम् अस्माभिः कृतं तथा अत्र क्रियते नित्यत्वाभावव्याप्यकृतकत्वं कृतकत्वं च इति समूहालम्बनज्ञानमादाय एकज्ञानविषये प्रकृतहेतुतावच्छेदक अवच्छेदकं यत् कृतकत्वत्वं तद्वत्त्वं कृतकत्वहेतौ अस्ति इति तस्यापि दुष्टत्वम् तर्हि तत्र दोषः हेत्वाभासः कथम् इति चेत् एकज्ञानविषये प्रकृतहेतुतावच्छेदकं कृतकत्वत्वं तद्वत्त्वं कृतकत्ववत्त्वं कृतकत्वरूपहेतौ अस्ति इति दोषरूप दोषवत्वात् कृतकत्वं दुष्टं हेत्वाभासः इति यथा पुस्तके दत्तं तथा प्रदर्शितं किन्तु भिन्नरीत्यापि एतस्य चिन्तनं कर्तुं शक्यते इति मम भाति इत्युक्ते अत्र व्यतिरेकव्याप्तिलक्षणं स्वीकृत्य नित्यत्वाभावाभावव्यापकीभूताभावप्रतियोगित्ववत् कृतकत्वम् इति प्रतिबन्धकज्ञानस्य आकारं स्वीकृत्यापि वक्तुं शक्यते इति मम भाति अतः मया तत्र द्वितीयमपि स्थापितमस्ति तर्हि मेहुल् महोदय तत् प्रतिपादयति वा
आं महोदय अस्तु प्रतिबन्धकज्ञानस्य आकारः अस्ति नित्यत्वाभावाभावव्यापकीभूताभावप्रतियोगित्ववत् कृतकत्वम् इति तर्हि प्रतिबद्धज्ञानं भवति नित्यत्वाभावव्यापकीभूताभावप्रतियोगित्ववत् कृतकत्वम् इति अस्तु द्वयोः मध्ये अत्र विशेष्यमस्ति समानमेव कृतकत्वम् इति अतः सामान्यविशेष्यतावच्छेदकं भवति कृतकत्वम् इति प्रतिबद्धज्ञाने प्रतिबद्धज्ञाने नित्यत्वाभावव्यापकीभूताभावप्रतियोगित्ववत् कृतकत्वम् अस्ति अतः प्रतिबद्धज्ञाने प्रकारः भवति नित्यत्वाभाव इति अस्तु अत्र सम्पूर्णं न लेखनीयं खलु नित्यत्वाभावव्यापकीभूताभावप्रतियोगित्वम् इति
तत्र व्यापकीभूताभाव व्यापकीभूताभावप्रतियोगित्वम् इति तस्य विशेषणम् इति चेत् पृथकत्वस्य विशेषणं
खलु,
सत्यं। तर्हि केन केन कृतकत्व अभावः व्यापकः जातः, तदेव प्रकारः भवति,
नित्यत्वाभावेन एव व्यापकः जातः।
अतः तावदेव मया स्वीकृतम्।
अस्तु अस्तु अस्तु, प्रतिबद्धज्ञानप्रकारः नित्यत्वाभावः, प्रतिबन्धकज्ञाने प्रकारः अस्तु नित्यत्वाभावाभावः इति
भावाभावः भवेत् इति कृत्वा तादृशं लिखितं, वस्तुतः नित्यत्वम् इति भवति,
नित्यत्वम् इति भवति। अतः प्रतिबद्धज्ञाने प्रकारता अवच्छेदकः भवति नित्यत्वत्वम्। अस्तु, नित्यत्वाभावः इति एव प्रकारः, तस्य अवच्छेदकः भवति नित्यत्वत्वम्। अस्तु, नित्यत्वाभावत्वम् इति न भवति वा? नित्यत्वाभावत्वम्
अभावत्वम् इति यदा कदापि न भवति।
अस्तु अस्तु,
इत्युक्ते नित्यत्व अभावः कस्य अभावः? नित्यत्वस्य अभावः। तर्हि नित्यत्वं प्रतियोगी सम्बन्धेन अभावे अस्ति, तस्य भावपदार्थस्य एव अवच्छेदकः भवति खलु।
अस्तु अस्तु,
अभावस्य अवच्छेदकं कथं वा स्यात्?
अस्तु, समीचीनं। प्रतिबद्धज्ञाने प्रकारता अवच्छेदकः नित्यत्वं, तथैव प्रतिबन्धकज्ञाने प्रकारस्य प्रतियोगितावच्छेदकः अपि नित्यत्वम् इति एव सत्यम्। अतः तदभाववत्ता अथवा तदभावव्याप्यवत्ता निश्चयमुद्रा भवति वा इति चिन्तनीयम्। नित्यत्वाभावव्यापकीभूताभावप्रतियोगित्ववत् कृतकत्वम् इति अस्तु। अत्र प्रतिबन्ध प्रतिबद्धज्ञाने तादृशमेव अस्ति नित्यत्वाभावव्यापकी भूताभावप्रतियोगित्वम् इति। अतः नित्यत्वाभावव्यापकीभूताभावप्रतियोगित्ववत् कृतकत्वम् इति तदभावव्याप्यवत्ता निश्चय मुद्रा भवति।
निश्चयः एव मुद्रा भवति,
निश्चयः एव मुद्रा भवति नित्यत्वाभावव्यापकी। अहं चिन्तयामि अत्र प्रतिबन्धकज्ञाने प्रतिबन्धकज्ञानस्य यः आकारः अस्ति तेन एव तया निश्चया तत् उपयुज्य मुद्रा भवति खलु। निश्चयः तु अत्र नित्यत्वाभावाभावव्यापकीभूताभावप्रतियोगित्ववत् कृतकत्वम् इति अस्ति, इत्येव निश्चयज्ञानं तदेव प्रतिबध्नाति। अतः नित्यत्वाभावाभाव व्यापकीभूताभाव इति उपयुज्य अत्र मुद्रा भवेत्। तर्हि
नित्यत्वाभावाभावव्यापकीभूताभावप्रतियोगित्ववत् कृतकत्वम्,
अतः
एव निश्चयात्मकज्ञानमस्ति खलु।
अतः
प्रमात्मकनिश्चयात्मकज्ञानं सत्यं, नित्यत्वाभावाभावव्यापकीभूत अभावप्रतियोगित्वम्। अस्तु, तद् तत् परिष्करोमि। नित्यत्वाभावाभाव सत्यं,
नित्यत्वाभावाभाव सत्यं। हा हा, अत्र बकारः लिखितं तत्र,
ओ बकारः जातः वा?
प्रायः
नित्यत्वाभाव अस्तु, परिष्कृतम्।
हा, तर्हि मुद्रा तु तदभावव्याप्यवत्ता निश्चयमुद्रा इत्येव भवति। अत्र अत्र तद् इत्यनेन नित्यत्वाभावः इति अस्ति। अस्तु, तर्हि
परिष्कुर्वन् अस्मि अस्तु, हा इदानीं वदतु।
नित्यत्वाभावाभावव्यापकी भूताभावप्रतियोगित्ववत् कृतकत्वम् इति दोषः यत् पदेन सङ्गृह्य तत्त्वं तस्मिन् यः धर्मः अस्ति तदेव नित्यत्वाभावाभावव्यापकी भूताभावप्रतियोगित्ववत् कृतकत्वम् इति ज्ञाने अस्ति। इति तस्य परामर्शप्रतिबन्धकत्वं तत्त्वं तस्मिन् पदार्थे इत्युक्ते नित्यत्वाभावाभावव्यापकीभूताभावप्रतियोगित्ववत् कृतकत्वे अस्ति इति दोषरूपहेत्वाभासलक्ष्मणसमन्वयः जातः. अस्तु, तर्हि समूहालम्बनं ज्ञानं किं भवति इत्युक्ते नित्यत्वाभावाभावव्यापकीभूताभावप्रतियोगित्ववत् कृतकत्वं कृतकत्वं च इति समूहालम्बनं ज्ञानमादाय अग्रे एकज्ञानविषयप्रकृतहेतुतावच्छेदकं यत् कृतकत्वत्वं तद्वत्त्वं कृतकत्वहेतौ आगच्छति इति दुष्टत्वमपि जातं तस्मिन्.
खलु,
सत्यं.
तर्हि एवम् अपि वक्तुं शक्यते इति भाति, पुस्तके भिन्नरीत्या दत्तमस्ति.
आमां, सरलं तादृशं भवितुमर्हति इति भाति.
भवितुमर्हति. तर्हि एवम् अत्र सत्यभामा भगिनी वदति वा, अत्र उपरि पर्वतः वन्यमान् जलात् इत्यत्र J16 J17 वन्यभावव्यापकीभूताभावप्रतियोगित्ववत् जलम्
प्रतिबन्धकप्रमात्मकनिश्चयात्मकज्ञानं पर्वतः वह्निमान् जलात् तत्र वह्न्यभावव्यापकीभूताभावप्रतियोगित्ववत् जलम् इति प्रतिबन्धकज्ञानम्.
अस्तु, तस्य अर्थः कः इति एकवारं वदति वा, वह्निभावव्यापकीभूताभावप्रतियोगित्ववत् जलम् इत्यस्य अर्थः कः?
वह्नि अभावेन व्यापकः अस्ति जलं.
व्यापकः जातः अस्ति किं?
जलं.
जलं नास्ति,
हेतुः खलु.
चिन्तयित्वा वदतु. वह्नि अभावेन व्यापकः व्यापकः जातः कः?
व्याप्यः इदानीं व्यापकः जातः.
व्याप्यः यदा कदापि व्यापकः न भवति.
यत् पूर्वं व्यापकः न आसीत् अव्यापकः आसीत्, इदानीं व्यापकः जातः इति.
स च इदानीं व्यापकः कः? वह्नि अभावस्य व्यापकः कः?
जलम् इति मम चिन्तनमासीत्.
नास्ति वा? नास्ति, नास्ति, निश्चयेन नास्ति. अस्तु, अत्र पर्वतः वन्यमान् जलात् इति अस्ति खलु, तत्र अन्वय अन्वय सहचारः वदतु, अन्वयव्याप्तिः वदतु.
यत्र यत्र जलं तत्र वह्नि अभावः इति. वह्निमान् वन्यतः
वन्यमान् जलात् इत्यत्र वदतु.
पर्वतः वह्निमान् जलात् अत्र साध्यमस्ति. वह्निः जलं हेतुः, यत्र जलं तत्र वह्निः.
सत्यं, यत्र जलं तत्र वह्निः इति अन्वयव्याप्तिः. व्यतिरेकव्याप्ति वदतु.
यत्र वह्नि अभावः तत्र जलाभावः.
तर्हि वह्नि अभावः यत्र वह्नि अभावः जल अभावः खलु. तर्हि व्यापकः कः?
जल अभावः.
वह्नि अभावस्य व्यापकः अस्ति जल अभावः. वह्नि अभावेन व्यापकः कः जातः इति चेत् जल अभावः जातः खलु. तर्हि अत्र किं लिखितमस्ति? वह्नि अभावव्यापकीभूत अभावप्रतियोगित्ववत् जलं. जल अभावस्य प्रतियोगी कः?
जलम्
इति लिखितं तावदेव. तर्हि वह्नि अभावव्यापकीभूताभावप्रतियोगित्ववत् जलम् इत्यत्र वह्नि अभावेन व्यापकीभूतः जातः जल अभावः
जलाभावः
तस्य प्रतियोगी जलम् तर्हि प्रतियोगित्ववान् प्रतियोगित्ववत् जलम् इति लिखितम् बुध्यते खलु तर्हि वह्निव्यापक वह्नि अभावस्य वह्नि अभावेन व्यापकः जातः कः इति चेत् जल अभावः इति वक्तव्यं न तु जलम् अस्तु
इदानीं प्रतिबध्यज्ञानस्य आकारः वह्नि व्यापकी बोधाभाव प्रतियोगित्ववत् जलम्
अत्र मम अपि किञ्चित् सन्देहः अस्ति किञ्चित् इतोपि चिन्तनं कुर्मः भवतः वह्निमान् जलात् इत्यत्र यत्र जलं तत्र वह्निः इति अन्वयव्याप्तिः यत्र वह्नि अभावः तत्र जल अभावः इति व्यतिरेकव्याप्तिः अत्र व्यतिरेकव्याप्तिः सिद्धा वा यन्नैवं तन्नैवं यथा जलं यदा यथा आकाशः खलु तर्हि अत्र व्यतिरेकव्याप्तिः सिद्धा इति कृत्वा तद्व्यतिरेकव्याप्तिः एव इदानीं प्रतिबन्धकः भवति वा
महोदय अत्र इतोपि एकं सोपानमपि अस्ति खलु व्यतिरेकसहचारः अतः तत्रापि दोषः अस्ति खलु वह्नि अभावः यत्र अस्ति तत्र जलं विपरीतदिति जल अभावः तत्र वह्निः इति अयगोळवे जल अभावः अस्ति परन्तु
तर्हि वस्तुतः अत्र व्यतिरेकव्यभिचारः अपि सिध्यति इति कृत्वा एव दोषः खलु
आम् तदेव दोषः
तर्हि प्रतिबन्धकज्ञानस्य आकारः कथं भवेत् वह्निः अभावव्यापकीभूत अभावप्रतियोगित्ववत् जलम् तर्हि वह्निः अभावेन व्यापकीभूत वह्निः अभावेन व्यापकीभूतः कः जलं वा जल अभावः वा वह्निः अभावेन व्यापकः जातः कः
उदाहरणं फर् बोतार् देर् जलम् अपि च जलाभावः
न यत्र वन्य अभावः तत्र जलम् यथा ह्रदः खलु तदेव व्यतिरेकव्यभिचारः खलु इदानीं
तदेव
किमर्थम् उक्तवती
यत्र जल अभावः तत्र वन्नि
तद् न चिन्तनीयं खलु हेतोः अभावः किम् अभावस्य विषये अन्वय व्यतिरेकसहचारः न चिन्तनीयः यत्र जल अभावः तत्र वह्निः अस्ति चेत् अत्र अस्य अनुमानस्य प्रतिबन्धकं न भवति खलु
अनुमानस्य प्रतिबन्धकं न भवति किन्तु तत्र व्याप्तिः न भवति खलु तादृश अस्ति चेत्
न न व्याप्तिः लभ्यते
अत्र हेतुः समीचीनं नास्ति वा अत्र कः दोषः वयं पूर्वं दृष्टवन्तः
अत्र एकनिमिषम् अन्वयसहचारः भवेत् व्यतिरेकसहचारः भवेत् व्यतिरेकव्यभिचारः न भवेत् इति त्रीणि त्रयः तिस्रः निकषाः खलु यदि अन्वय व्यभिचारः भवति तदा व्याप्तिः न जायते इति वदेम वा
अत्र तत् सोपानं तदपि अस्ति खलु अतः एव
न नास्ति खलु सोपाने व्यतिरेकव्यभिचारस्य चिन्तनमेव अन्वयव्यतिरेकव्यभिचारस्य चिन्तनं न कृतम् यत्र हेत्वाभावः तत्र साध्यम् इति न चिन्तितं यत्र साध्याभावः तत्र हेतुः अस्तु अत्र प्रकृत उदाहरणं यदा एतादृशसन्देहः भवति तर्हि प्रकृत उदाहरणं किं पर्वतः वन्यमान् धूमात् इत्यत्र अन्वये व्यभिचारः वदतु
अन्वये व्यभिचारः यत्र जलं
न इदानीम् उदाहरणं भिन्न उदाहरणमस्ति स्टाक् उदाहरणं पर्वतः वन्यमान् धूमात् इति उदाहरणं
पर्वतः वन्यमान् धूमात् ओके
अत्र अन्वयव्यभिचारः वदतु
अन्वयव्यभिचारः यत्र धूमः तत्र वह्निः तत्र वह्नि अभावः यत्र
इति नास्ति खलु यत्र यत्र धूमः तत्र वह्नि अभावः इति नास्ति यत्र
अन्वयव्यभिचारः खलु तद् अभावः प्रथम आगच्छति वा
सत्यं खलु
यत्र साध्य अभावः तत्र हेतुः इति
न तत्तु व्यतिरेकव्यभिचारः अन्वयव्यभिचारः यत्र हेतु अभावः तत्र साध्यम्
देन् यत्र धूम अभावः तत्र वह्निः
इति भवितुमर्हति खलु गेस् स्टव् तत्ता एफ् पिण्डः यत्र धूमाभावः तत्ता एफ् पिण्डे धूमाभावः अस्ति किन्तु वह्निः अस्ति
तदा अस्ति चेत् दोषः नास्ति वा इति मम प्रश्नः
इति अस्ति चेत् दोषः नास्ति इत्युक्ते यत्र धूमाभावः तत्र साध्यमस्ति चेत् इदानीं पर्वतः वह्निमान् धूमात् तर्हि तत्र हेतौ क्लेशः एव नास्ति अतः तप्तायपिण्डविषये न चिन्तनीयम् अस्तु
अस्ति चेत् तद्दोषः नास्ति
आम् अन्वयव्यभिचारः अन्वयव्यभिचारः सिद्धः अस्ति चेदपि दोषः नास्ति तत् किमर्थमित्युक्ते हेतोः अभावस्य चिन्तनं खलु अन्वयव्यभिचारे यत्र हेतु अभावः तत्र साध्यम् इत्यत्र हेतोः अभावः हेतोः अभावे अभावे हेतु अभावं स्वीकृत्य अस्माभिः किमपि न साधयति खलु वयं न किमपि साधयामः इति कृत्वा अन्वयव्यभिचारः न चिन्तनीयः एव अस्तु तर्हि इदानीं किम् अत्र पर्वतः वह्निमान् जलात् इत्यत्र यत्र जलं तत्र वह्निः इति तादृश उदाहरणं न दातुं शक्यते
जलं तत्र वह्निः
इति न दातुं शक्यते अतः अस्तु तर्हि इदानीं व्यतिरेकव्याप्तिः यत्र वह्नि अभावः तत्र जलाभावः यथा आकाशः तर्हि व्यतिरेकव्याप्तिसिद्धा इति कृत्वा एव अत्र अनुमानं भवितुमर्हति इति भाति किन्तु व्यतिरेकव्यभिचारः अस्ति वा इति द्रष्टव्यं व्यतिरेकव्यभिचारे क्लेशः अस्ति इत्युक्ते व्यतिरेकव्यभिचारः सिद्ध्यति यत्र वह्नि अभावः तत्र जलं यथा ह्रदः इति सिद्ध्यति तदेव दोषः तर्हि वह्नि अभावेन व्यापकीभूत अभावप्रतियोगित्ववत् जलम् इति न अत्र मया क्लेशः कृतः वह्नि अभावाभाव इति लेखनीयमासीत् अतः एव वह्नि अभावाभाव इति यथा पूर्वं लिखितं तदा
महोदय वह्नि अभावाभावः इति लिखितं चेत् वह्निः एव खलु
सत्यं यथा अधोभागे लिखितं नित्यत्वाभावाभावः इत्युक्ते नित्यत्वमेव
किन्तु तत् प्रतिबन्धकज्ञानं भवति वा तत् प्रतिबद्धज्ञानस्य आकारः भवति खलु
न तदेव चिन्तनम् इदानीम् अस्तु इदानीं यथा मया लिखितं तत्र चिन्तयतु वन्याभावाभावव्यापकीभूताभावप्रतियोगित्ववत् जलम् इत्यस्य अर्थः कः
वह्नि अभावाभाव वह्नि
वह्न्यभावाभावः इत्युक्ते वह्निः
वह्निः व्यापकीभूतः भवति जलम् अथवा जलाभावः जलाभावः इति इति तादृशं
यत्र वह्निः
तद्
तत्
संस्थिनं तस्य प्रतियोगित्व अस्ति जलम्
इति एव व्यतिरेकव्यभिचारः इति व्यतिरेकव्यभिचारः सिद्ध इति कृत्वा एव सः व्यतिरेकव्यभिचारः एव प्रतिबन्धकः भवति अस्य अनुमानार्थं खलु
किन्तु महोदय यदि एतादृशं वदति चेत् वह्नि व्यापकीभूताभावप्रतियोगितवत् वत् इति अपि समानमेव खलु
हा वह्नि अभावाभावव्यापकीभूताभावप्रतियोगित्ववत् जलं वह्निव्यापकीभूताभावप्रतियोगित्ववत् जलम् उभयं समानमेव
समानमेव अत्र कथं प्रतिबन्धकं भवति इदं
तदेव प्रतिबन्धकं यत्र वह्निः तत्र जल अभावः अस्ति खलु इति व्यतिरेकविचारः जातः
ओके
किन्तु अत्र वह्निः साधनीयः अस्ति इति कृत्वा अत्र व्यतिरेकव्यभिचार उदा व्यतिरेकव्यभिचारः वक्तव्यम् इति कृत्वा वह्निः अभावाभावः इति मया उक्तं तावदेव बुद्धं खलु हा अस्तु तर्हि वन्यभावाभावव्यापकीभूताभावप्रतियोगित्ववत् जलम् इति प्रतिबन्धकज्ञानस्य आकारः तर्हि प्रतिबद्धज्ञानस्य आकारः कः भवति परिष्कर्तव्यं वह्नि वह्नि अभाव इति भवेत् वह्नि अभावव्यापकीभूताभावदतु
वह्नि अभावव्यापकीभूताभावप्रतियोगित्ववत् जलम्
हा तर्हि समानविशेष्यं किम्
जलम् इति
विशेषतः अवच्छेदकः
जलत्वम् इति भवति वा
सत्यं जलत्वं
जलत्वं
तदनन्तरं प्रतिबद्धज्ञाने प्रकारः अस्ति वह्नि
वह्नि अभाव एक प्रतिबद्धज्ञाने प्रतिबन्धकज्ञाने वह्नि अभावाभावः
अभावाभावः अस्तु उभयत्र
प्रकारद अवच्छेदकम् अस्ति वह्नित्वम् इति अभावस्य अवच्छेदकं नास्ति इत्यतः इदानीं तद्वत्ता बुद्धिं प्रति तदाभावव्याप्यवत्ता नास्ति वा तदभाववत्ता निश्चयमुद्रः मुद्रा तदाभावव्याप्यवत्ता निश्चयमुद्रा तद् वह्नि अभावव्यापकीभूताभावः
इदानीं परिष्कृतं तद् इदानीं
वह्नि अभाव व्यापकीभूताभाव प्रतियोगित्ववत् जलं पर्वते इत्यतः तद् अभावव्याप्यवत्ता निश्चयमुद्रया निश्चयस्य अस्य सुगमा
खलु
इदानीं हेतुभासलक्षणसमन्वयः वह्नि अभाव व्यापकीभूताभाव प्रतियोगित्ववत् जलम् इति दोषः यत्पदेन सङ्गृह्य तत्त्वं वह्नि अभाव व्यापकीभूताभाव प्रतियोगित्ववत् जलम् इति ज्ञाने अस्ति इति तस्य परामर्शप्रतिबन्धकत्वं तत्त्वं तस्मिन् पदार्थे वह्नि अभाव व्यापकीभूताभाव प्रतियोगित्ववत् जले अस्ति इति दोषरूपहेतुभासलक्षणसमन्वयः इदानीं समूहालम्बनस्य आकारः वह्नि अभाव व्यापकीभूताभाव प्रतियोगितवत् जलं जलम् इति समूहालम्बनज्ञानमादाय एकज्ञानविषयप्रगतहेतुदा अवच्छेदकं यत् जलत्वं तत्त्वत्वं जल जलहेदौ अस्ति इति तस्यापि दुष्टत्वम् एकज्ञानप्रकृतहेतुता अवच्छेदकं जलत्वं तत्त्वत्वं जलत्ववत्त्वं जलरूपप्रकृतहेतौ अस्ति इति दोषवत्त्वात् जलं दुष्टं हेतुवाभासः हेतुसाध्ययोः
अस्तु इति लेखनीयम्. अत्र एकः एव इतोपि मम मनसि सन्देहः अस्ति. अत्र यथा एतादृशं लिखेम लिखामः तत्र वन्यभावाभावव्यापकीभूताभावप्रतियोगित्ववत् जलम् इत्यत्र मुद्रा का इत्यत्र किञ्चित् चिन्तनीयं. तदभावव्याप्यवत्ता निश्चयमुद्रा भवति वा नो चेत् तदभावत्ता निश्चयमुद्रा भवति वा इति केवलं तत्रैव
मम चिन्तनं व्याप्यवत्ता इति भवति इति यतोहि अत्र अभावः अस्ति खलु
अभावः अस्ति इति कृत्वा नास्ति
व्याप्ति चिन्तयित्वा एव तत् वक्तुं शक्यते अदर्वैस्
यत्र यत्र व्याप्तिचिन्तनं कुर्मः तत्र सर्वत्र व्याप्यति इति न भवेत्
न भवेत्
अत्र पश्यतु विरुद्धः इत्यत्र द्वितीय उदाहरणे शब्दः नित्यः कृतकत्वात् इत्यत्र नित्यत्वव्याप्यकृतकत्वम् इति दोषः नित्यत्वेन व्याप्यम् अस्ति नित्यत्व अभावेन व्याप्यमस्ति कृतकत्वं खलु अतः दोषः कीदृशः इति चेत् तद् अभावव्याप्यवत्ता निश्चय इति तत्र वक्तुं शक्यते. किन्तु यदा अत्र व्यापकीभूत इति वदेम तत्र प्रायः भाव तद् अभाववत्ता इति एव भवेत् इति भाति मम. अत्र व्याप्यविषये किमपि न उक्तं खलु कः दोषः कः दोषः इति चेत् नित्यत्वाभावाभाव इत्युक्ते नित्यत्वव्यापकीभूताभावप्रतियोगित्ववत् कृतकत्वम् नित्यत्वेन अत्र कृतकत्व अभावः व्यापकः जातः अस्तु किञ्चित् इतोपि मया चिन्तनीयं किन्तु भवितुमर्हति इति भाति व्याप्या इत्येव भवति इति अपि इति मम अपि भाति. अस्तु तर्हि इदानीं रमेश महोदय धन्यवादः भगिनि. रमेश महोदय
धन्यवादः महोदय.
आं महोदय.
अस्तु तर्हि इदानीं भवतः अभ्यासः एतदस्ति पर्वतः वन्यमान् जलात् इत्यत्र शब्दः नित्यः कृतकत्वात् इत्यत्र नित्यत्वाभावव्याप्यकृतकत्ववत् शब्दः इति प्रतिबन्धकज्ञानं स्वीकृतं खलु तथा अत्र वदति वा
किं महोदय नित्यत्व अभाव
इत्युक्ते इदानीं किं कृतं वन्याभावाभावव्यापकीभूताभावप्रतियोगित्ववत् जलम् इति प्रतिबन्धकज्ञानस्य आकारः इति स्वीकृत्य अत्र सर्वं सम्पादितं खलु किन्तु तादृशम् अकृत्वा यथा अधोभागे अस्ति खलु नित्यत्वा अभावव्याप्यकृतकत्ववत् शब्दः इति तादृशं वदति वा अत्र
एकनिमिषं टेक्स्ट् मध्ये 269 पेज् मध्ये लास्ट् पेराग्राफ् नित्यत्वाभाववती शब्दे श्रावणत्वस्य सत्त्वेन तस्य व्यभिचारित्वात् तत्र परामर्शेन व्याप्य अवगाहित्वात् इति दत्तमस्ति. व्याप्यः अवगाहित्वात् अतः एव अत्र व्याप्यः आगच्छति वा
न अस्तु तर्हि रमेश महोदय चिन्तयतु तावत् सत्यभाव भगिनी वदतु इदानीं भवत्या एकनिमिषम् अहं प्रश्नं पृच्छामि. तदभाववत्ता निश्चयः, तदभावव्याप्तिवत्ता निश्चयः, अनयोः मध्ये कः भेदः?
एकस्मिन् स्थाने अनुमिति यदा ज्ञायते तत्र तद् अभाव इति वक्तुं शक्यते खलु. तदभावव्याप्यवत्ता डैरेक्ट् मीनिङ्ग् नो
न इति नास्ति.
तत्र व्याप्तिचिन्तनस्य आवश्यकता नास्ति खलु यदा अनुमिति
न न यत्र यत्र व्याप्तिचिन्तनस्य व्याप्तेः चिन्तनं भवति तत्र सर्वत्र व्याप्यवत्ता इति न वक्तव्यम्. अस्तु अत्र कुत्र अस्ति इति अहं वदामि. पुस्तके मुद्राविषये दत्तमस्ति. हा अस्तु 234 तत्र गच्छतु भगिनि. टु तर्टि फोर्
आम् आम्
अत्र मुद्रापदार्थनिरूपणम् इति 232 पेज् मध्ये अस्ति. तत्रैव तदभाववत्ता निश्चयमुद्रा इति एका, तदभावव्याप्यवत्ता निश्चयमुद्रा इति द्वितीया. अत्र पठतुव्याप्यवत्ता निश्चयमुद्रा इति
यदा हृदः वन्यभावव्याप्यजलवान् इति निश्चये सति हृदः वन्यमान् इति तद् तद्वत्ता बुद्धिर् न भवति.
हा अत्र पश्यतु वह्निः अभावव्याप्यजलवान् इति निश्चयः यस्मिन् अस्ति तस्मिन् हृदः वन्यमान् इति अनुमितिः न जायते.
हा
अग्रे पठतु.
वह्नि अभावव्याप्यजलवत्ता निश्चयः द्विविधो भवति. वस्तुतः वह्नि अभावस्य व्याप्यं यत् जलं तस्य हृदे निश्चयः कीदृशः? पुनः अस्य आकारः हृदः जलवान् इति. वस्तुतः वह्नि अभावव्याप्यं यत् जलं तत् अस्मिन् निश्चये हृदे भासते. किं न भासते? जलांशे वह्नि अभावव्याप्ति न ज्ञाने भासते. सा व्याप्ति जले विद्यमाना अपि न ज्ञाने विषयः. अतः एव हि ज्ञानस्य आकारः हृदे जलवान् हृदः जलवान् इत्येव, न तु हृदः वह्नि अभावव्याप्य जलवान् इत्याकारः अपि.
अत्र पश्यतु जलांशे वह्नि अभावव्याप्तिः न ज्ञाने भासते इति उक्तं खलु.
आम्
अतः यथा भवत्या अवगतम् इत्युक्ते अनुमानं न जायते चेत् तदभाववत्ता निश्चयमुद्रा. परामर्शः न जाय व्याप्तिः न जायते चेत् अभावव्याप्य इति नास्ति इति नास्ति. अस्तु पुनः अस्मिन् विषये चिन्तनं कर्तुम् अवकाशः आगच्छति अद्यैव. इतोपि चिन्तनं कुर्मः तस्मात् पूर्वं. हा रमेश महोदय वदतु इदानीं.
तर्हि वह्नि अभाव व्याप्य जलवान् पर्वतः इति भवति वा?
वह्नि अभाव
व्याप्य जलवान् पर्वतः
जलवत् पर्वतः
जलवत् पर्वतः
इति एक समस्तपदेन वक्तुं शक्यते. वह्निः अभावव्याप्य जलवत् गलवत् इति मेलति जलवत् जलवत् पर्वतः खलु.
जलवात् इति लिखितमस्ति.
जलवत् पर्वतः उत्तमम्. वह्निः अभावव्याप्य जलवत् पर्वतः इत्यस्य अर्थः कः?
पर्वते यत् जलमस्ति तस्मिन् जले वह्निः न भवितुम् अर्हति इति.
न न समीचीनतया वदतु.
जले यदा कदापि वह्निः न भवितुम् अर्हति. वह्नि
जले
अभाव व्याप्य जल
महोदय तद् नास्ति महोदय. इत्युक्ते अत्र जलम् इति हेतुः अस्ति किल, हेतौ साध्यं भवति वा न वा इति किमर्थं चिन्तनीयम्? जले वह्निः भवति वा न वा इत्यस्य चिन्तनमेव नास्ति. वह्निः अभावः व्याप्य जलवत् पर्वतः इत्यस्य अर्थः कः?
वह्निव्याप्य जलवत् पर्वतः, वह्निव्याप्य जलवान् अस्ति. पर्वते यदा जलमस्ति चेत् तत्र वह्निः न भवितुम् अर्हति एव अस्ति खलु तत्?
हा, किन्तु भवता किमुक्तम् अत्र जले वह्निः न भवति इति?
जले वह्निः न भवति तर्हि न वह्निव्याप्य जलवान् इत्युक्ते जले वह्निः न भवति इति एव खलु? जले वह्निः न भवति,
वह्निव्याप्य जलम् इति नास्ति. वह्निव्याप्य जलवान्, जलवान् कः?
पर्वतः.
तर्हि पर्वते इति वक्तव्यं, न तु जले.
न न, परन्तु जले किमर्थं, जलं स्वीकृत्य किमर्थं वह्निमान् पर्वतः न वक्तुं शक्यते इत्युक्ते यत्र जलमस्ति तत्र वह्निः न भवितुम् अर्हति.
तदेव जलमस्ति, महोदय भवान् कथं वदति इति पश्यतु. यत्र जलमस्ति तत्र न वह्निः भवितुम् अर्हति इति सत्यम्. जले वह्निः न भवति इत्यतः इति नास्ति. यत्र जलमस्ति तत्र वह्निः न भवितुमर्हति. बुद्धं खलु? हा, अस्तु. तर्हि इदानीं वदतु, वह्नियभावव्याप्य जलवत् पर्वतः इत्यस्य अर्थः कः?
जलः वह्नि अभावः यत्र जलमस्ति तत्र वह्नि नास्ति इति. वह्निव्याप्य जलः वह्निव्याप्य जलवान्
न वह्निव्याप्य जलवत् पर्वतः इत्यत्र पुनः वदतु.
यत्र जलम् अस्ति तत्र वह्निः न भवितुम् अर्हति. तदेव वह्निव्याप्य जलः, वह्नि अभावव्याप्य जलः इत्युक्ते तस्य अर्थः तदेव.
यत्र जलं तत्र वह्नि अभावः इति. तत्र तर्हि वह्नि अभावेन व्याप्यः जातः कः? जलं खलु?
जलं जातः.
हा, तर्हि वह्नि अभावः इति व्यापकः, जलम् इति व्याप्यः अस्ति, तादृशजलं
पर्वते अस्ति.
हा, इति अर्थः. समीचीनं. तर्हि तदेव प्रतिबन्धकज्ञानस्य आकारः, वह्नि अभावव्याप्य जलवत् पर्वतः. तर्हि प्रतिबन्धकज्ञानस्य आकारः कः, किं भवति?
तर्हि वह्निव्याप्य जलवत् पर्वतः इति प्रति इति ज्ञानस्य प्रतिबन्धकः भवति तत्.
हा, अस्तु. तर्हि इदानीं समानविशेष्यं किम्?
पर्वतः इति समानविशेष्यमस्ति. पर्वतत्वम् इति तस्य विशेषकावच्छेदकः अस्ति.
हा, तदनन्तरम् इदानीं प्रतिबन्धकज्ञाने प्रतिबध्यज्ञाने प्रकारः कः?
प्रतिबध्यज्ञाने प्रकारः वह्नि अभावः.
न प्रतिबध्यज्ञाने
प्रकारः वह्निः. वह्निः एव प्रतिबध्यज्ञाने प्रकारः.
वह्निव्याप्य जलम् इति प्रकारः. वह्निव्याप्य जलवत् पर्वतः खलु?
वह्निव्याप्य जलम् इति प्रतिबध्यज्ञानप्रकारः. वह्निव्याप्य जलम् इति अस्ति.
प्रतिबन्धकज्ञाने प्रकारः कः भवति?
वह्नि अभावव्याप्य जलम् इति प्रकारः भवति.
उभयत्र अवच्छेदकः
जलत्वमेव अवच्छेदकः भवति.
जलत्वं खलु? जलत्वं प्रायः केत्र अत्र केवलं जलत्वमित्येव वक्तव्यम्। नित्यत्वव्याप्यकृतकत्वं नित्यत्वव्याप्यकृतकत्वम् इति अधोभागे मया यद् लिखितं तत्र केवलं कृतकत्वत्वं कृतकत्वं कृतकत्वत्वम् अवच्छेदकः कृतकत्वत्वम् इति भवेत् खलु, तद् मया न लिखितं समीचीनं। कृतकत्वत्वं कृतकत्वत्वं कृतकत्वत्वम् अस्तु, हा इदानीं परिष्कृतं। जलत्वं जलत्वं तत्र वह्निव्याप्य प्रतिबद्ध्यज्ञाने वह्निव्याप्यजलत्वम् इति एव अस्ति खलु, सत्यं। तर्हि वह्निव्याप्यजलत्वम् इति लेखितुं शक्यते, वह्निव्याप्यजलत्वम् वह्निव्याप्यजलत्वम् अत्रापि वह्निव्याप्यजलत्वम् अस्तु। तर्हि इदानीं तद्वत्ता बुद्धिं प्रति
वह्नि अभाव जलत्व वह्नि अभाव वह्नि अभाव वह्नि अभाव जल वह्नि अभाव व्याप्य जलवान्
जलवत् पर्वतः
जलवत् पर्वतः इति वह्नि अभाव जलवत् पर्वतः
न पर्वतः यावत् न गन्तव्यं,
वह्नि अभाव जलवत्
व्याप्य जलं
जलवान्
जलं
जलं वह्नि व्याप्य अभाव जलम् अस्ति।
हा वह्नि अभावव्याप्य जलम् इति तद् अभावव्याप्यवत्ता निश्चयमुद्रया खलु, तदभाव
व्याप्यवत्ता निश्चयमुद्रया
व्याप्यवत्ता निश्चयः भवति। अस्तु तर्हि इदानीम् अत्र किञ्चित् लिखामि, एकनिमिषं महोदय। अस्तु तर्हि वह्नि अभावव्याप्य जलम् वह्नि अभावव्याप्य जलम् इति दोषः यत्पदेन सङ्गृह्य तत्पदं वह्नि व्याप्य जलम् इति ज्ञाने वह्नि अभावव्याप्य जलम् इति दोषः यत्पदेन सङ्गृह्य तत्त्वं वह्नि अभावव्याप्य जलम् इति ज्ञाने अस्ति इति तस्य प्रसामस्य परामर्शप्रतिबन्धकत्वम् जले इति लेखनी। हा इदानीं वदतु महोदय,
किं महोदय हेत्वाभासलक्षणं वा समन्वयः?
हा हेत्वाभासलक्षणसमन्वयः।
वह्निव्याप्य वह्न्यभावव्याप्य जलम् इति दोषः यत्पदेन सङ्गृह्य तत्त्वं वह्नि अभाव वह्नि अभावव्याप्य जलम् इति ज्ञानम् अस्ति
इति ज्ञाने अस्ति
ज्ञाने अस्ति इति तस्य परामर्शः परामर्शप्रतिबन्धकत्वं तत्त्वं तस्मिन् पदार्थे वह्नि अभावव्याप्य जले अस्ति।
इति
दोषरूपहेत्वभाससमन्वयः व्याप्यजलत्वं पण्यभावव्याप्यजलम् इति दोषः तज्ज्ञाने अस्ति
बुध्यते खलु
समूहालम्बनं ज्ञानं तर्हि भवति वह्नि अभाव वह्नि अभावव्याप्य जलं जलं च इति भवति एकज्ञानप्रकृत एकनिमिषं कुत्र दत्तम्
खलु
एकज्ञानप्रकृतहेतु अवच्छेदकत्वं हेतुता अवच्छेदकं जलत्वं तद्वत्त्वं जलवत्त्वं जलरूपप्रकृतहेतौ अस्ति इति दोषवत्त्वात्
जलं दुष्टं हेत्वाभासः
अत्रापि समूहालम्बनस्य आवश्यकता नास्ति खलु
यत्र यत्र साक्षात् हेतुः भवति तत्र समूहालम्बनस्य आवश्यकता नास्ति तथापि अस्माभिः चिन्तितम् अस्तु उत्तमं बहिर् महोदय सर्वं समीचीनं किम्
आं महोदय समीचीनमस्ति
अस्तु तर्हि अत्र इतोपि एकं स्प्रेड्शीट् मया स्थापितमस्ति तस्मिन् विषये इदानीं चिन्तनं कुर्मः उदाहरणपरिशीलनम् इति तस्मात् पूर्वं केवलं पुनस्मारणार्थम् अहं वदामि अत्र सोपानानि कानि इति चेत् हनुमानस्य उदाहरणमुक्तं किं तत्र उदाहरणं कीदृशं भवेत् इत्यत्र गते वर्गे चिन्तनम् आरब्धं किन्तु न समापितं भवतु अनन्तरं चिन्तयेम हनुमानस्य उदाहरणमुक्तं किम् वस्तुतः तत्र किं भवेत् इति चेत् यस्मिन् प्रदेशे इत्युक्ते यत्र यत्र वह्नि अत्र पर्वतः वह्निमान् धूमात् यथा महानसम् इत्यत्र महानसे एकस्मिन् कोणे वह्निः भवितुमर्हति किन्तु यस्मिन् कोणे साध्यमस्ति वह्निः तस्मिन्नेव कोणे तत् अनरिक्तदेशे हेतुः भवेत् अन्यस्मिन् कोणे यदि जलमस्ति इत्युक्ते कोऽपि वदति पर्वतः वह्निमान् यथा जलात् यथा महानसम् इति वदति चेत् इदानीं महानसे एकस्मिन् कोणे वह्निः अस्ति अन्यस्मिन् कोणे जलमस्ति तर्हि यत्र यत्र जलं तत्र तत्र वह्निः इत्युक्ते अत्र सामान्यतया किं कुर्मः यत्र यत्र वह्निः अस्ति तत्र तत्र तु जलं भवत्येव यदा वह्निः तत्र तस्य तीक्ष्णम् अधिकं भवति तीव्रम् अधिकं भवति तदा तत्र जलस्य अपेक्षा अस्ति वह्नेः शमनार्थम् इति कृत्वा सर्वत्र जलं स्थापयन्ति तर्हि एतादृशव्याप्तिः अपि लब्धुं शक्यते यत्र यत्र वह्निः तत्र न यत्र यत्र जलं तत्र तत्र वह्निः इति अपि व्याप्तिः लभ्यते बहुत्र तथापि एवं न वक्तव्यम् इत्युक्ते यस्मिन् कोणे वह्निः अस्ति तस्मिन् कोणे तत् प्रदेशम् अनरितिच्य अनतिरिच्य हेतुः अपि भवेत् तादृश उदाहरणं वक्तव्यं तत् कथं लेखनीयम् इत्यस्मिन् विषये अहं चिन्तयन्नस्मि भवतु किन्तु हनुमानस्य उदाहरणम् उक्तं किम् इति प्रथमप्रश्नः उक्तं चेत् अग्रे गन्तव्यं पक्षः कः साध्यं किं हेतुः कः इति वक्तव्यं तदा पक्षः प्रसिद्धः अस्ति वा साध्यं प्रसिद्धमस्ति किं पक्षे साध्याभावः सर्वदा भवति वा हेतुः सिद्धः किं पक्षधर्मता हेतौ अस्ति वा तदनन्तरं व्याप्तिपरिशीलनं तत्रापि अन्वयसमाचारः लभ्यते वा व्यतिरेकसमाचारः लभ्यते वा व्यतिरेकव्यभिचारः न लभ्यते वा इति चिन्तनीयं तस्मादुपरि साध्याभावसाधकं हेत्वन्तरम् अस्ति वा इति चिन्तनीयम् तदनन्तरं हेतुः सोपादिकः वा इति दशप्रश्नाः करणीयाः तदा इदानीम् अत्र सम्पूर्णं चिन्तनं भवति इति उक्तम् इति अस्माभिः दृष्टं. तर्हि इदानीम् उदाहरणपरिशीलनम् इति स्प्रेड्शीट् मध्ये मया किं कृतम् इति चेत्, अत्र यानि उदाहरणानि अस्माभिः चिन्तितानि तानि सर्वाणि अत्र स्थापितमस्ति. किन्तु कालं मध्ये मया किं स्थापितम् इति चेत्, अत्र ये हेत्वाभासाः अस्माभिः चिन्तिताः तत्सर्वम् अत्र स्थापितम् इति. तर्हि एकम् उदाहरणं, यद्यपि ग्रन्थकारेण एकस्य हेत्वाभासस्य प्रतिपादनार्थम् एकम् उदाहरणम् उक्तमस्ति, किन्तु तस्मिन् उदाहरणे सः एव हेत्वाभासः भवति इति नास्ति. बहवः हेत्वाभासः तस्मिन् उदाहरणे कल्पयितुं शक्यते, तदर्थम् एषः अभ्यासः. अस्तु, तर्हि मेहुल् महोदय भवान् आरब्धं करोतु. वह्निः अनुष्टत्ववान् द्रव्यात्, द्रव्यत्वात् यथा जलम् इति उदाहरणम्.
आम् आम् महोदय. अस्तु, तस्मिन् उदाहरणे आश्रयसिद्धिः भवति वा इति चिन्तनीयं खलु.
इत्युक्ते अत्र उदाहरणं लिखितमस्ति खलु, यथा जलं. तर्हि उदाहरणं दत्तम् इति कृत्वा प्रथमम् उदाहरणं समीचीनं वा इति परिशीलयतु.
अस्तु अस्तु, हा अस्तु. अत्र वह्निः इति पक्षः, अनुष्णत्वम् इति साध्यं, द्रव्यत्वम् इति हेतुः. तर्हि अत्र जलम् इति यदा उदाहरणं स्वीकुर्मः चेत्, अत्र उदाहरणे साध्यमपि भवेत्, हेतुः अपि भवेत्. अत्र जले अनुष्णत्वम् अपि अस्ति, द्रव्यत्वम् अपि अस्ति, अतः समीचीनम् उदाहरणम् इति भाति जलम् इति.
अपि च तत्र इतोपि किञ्चित् वक्तव्यं, भवेत् इति तु सत्यं यथा, किन्तु तस्मिन्नेव देशे इति अपि द्रष्टव्यं.
सत्यं सत्यम् उदाहरणं, हा हा, जले एव द्रव्यत्वम् अस्ति, तस्मिन्नेव देशे अनुष्णत्वमपि अस्ति, अतः
विपरीतरीत्या वक्तव्यं. यत्र अनुष्णत्वम् अस्ति तद् अनरित्युच्य द्रव्यत्वमस्ति इति वक्तव्यम्.
अस्तु, इत्युक्ते तस्मिन्नेव देशे द्रव्यत्वमपि अस्ति तत्र एव.
हा, यस्मिन् जले, यस्मिन् प्रदेशे, इत्युक्ते जले सर्वत्र इदानीम् अनुष्णत्वमिति व्याप्यवृत्तिः अस्ति खलु.
सत्यं सत्यं, सर्वत्र अस्ति.
अतः जले सर्वत्र अनुष्णत्वमस्ति, अत्र अतः कुत्रचित् द्रव्यत्वमस्ति चेत् पर्याप्तं, किन्तु सर्वत्र द्रव्यत्वमपि अस्ति इति कृत्वा समीचीन उदाहरणं.
समीचीन उदाहरणम्.
अस्तु, तर्हि तदपि अत्र योजयिष्यामि उदाहरणपरिशीलनम्. अस्तु, हा कृतम्.
अस्तु,
अग्रे
अग्रे पक्षसिद्धिः अथवा आश्रयसिद्धिः इति दोषः. अस्तु अस्तु, अत्र पक्षः इति वह्निः, वह्निः प्रसिद्धः एव, अतः
पक्षासिद्धिः अत्र न प्राप्तः खलु.
हा, पक्ष असिद्धिः इति न प्राप्तः, सत्यम्.
अस्तु,
साध्यमपि अत्र अनुष्णत्वम् इति साध्यं, तदपि प्रसिद्धः, अतः साध्यसिद्धिः अपि न लभ्यते.
एकनिमिषं महोदय, भवान् वदतु.
साध्यं प्रसिद्धः खलु अनुष्णत्वम् इति, अतः साध्यसिद्धिः इति न प्राप्तम् अस्मिन् उदाहरणे, अस्मिन् अनुमानवाक्ये. साध्यं तु प्रसिद्धमेव.
अस्तु, साध्यासिद्धिः नास्ति.
नास्ति.
अस्तु, एतदपि अहं वदामि, अत्र 4.15 बाधः, 4.2 स्वरूपसिद्धः इति किमर्थं तत्र नम्बर् स्थापितम् इति चेत्, तत्र पञ्चविधहेत्वाभासः उक्तः खलु पुस्तके.
आम् आम् आम्.
तत्र सत्प्रतिपक्षः न सत्प्रतिपक्ष सव्यभिचारः इति प्रथमः.
सत्यम्.
तर्हि तत्र सव्यभिचारः यत्र भवति, तत्र 1 इति मया स्थापितं, तत्रापि साधारणसव्यभिचारः 1.1.
आम् सत्यम्, असाधारण
असाधारणसव्यभिचारः इति 1.2. अनुपसंहारी इति 1.3. तदनन्तरं द्वितीयः अस्ति
विरुद्धः.
तदनन्तरं तृतीयः अस्ति सत्प्रतिपक्षः.
आम् आम्.
चतुर्थमस्ति आशयासिद्धिः. तत्रापि न असिद्धिः इति चतुर्थं, तत्र आश्रयासिद्धिः इति 4.1, स्वरूपासिद्धिः इति 4.2, व्याप्यत्वासिद्धिः इति 4.3. तदनन्तरं पञ्चम अस्ति बाधः, आहत्य नव हेत्वाभासः अस्माभिः अधीतः खलु.
सत्यम्. आम्
अस्तु समीचीनं. हा तर्हि साध्यासिद्धिः अपि नास्ति. हा अग्रे
बाधः. अस्तु अत्र साध्याभाववत् पक्षः अस्ति वा इति चिन्तनीयम्. साध्याभाववत् इति अत्र पक्षः इति वह्निः, साध्यमिति अनुष्णत्वं, तर्हि अनुष्णत्वाभाववत् वह्निः अस्ति वा इति अस्ति चेत् बाधः, परन्तु अत्र वयं जानीमः वह्निः उष्णः एव, अतः अनुष्णत्व अभावः इत्युक्ते उष्णत्वं, तर्हि उष्णत्ववत् वह्निः इति अस्ति, अतः साध्याभाववत् पक्षः अस्ति.
साध्याभाववत् पक्षः इत्युक्ते साध्याभावः अनुष्णत्वाभावः उष्णत्वं
पक्षे अस्ति,
पक्षे अस्ति खलु.
आम् अतः
पक्षे अस्ति, तर्हि अत्र अस्तु, अत्र इतोपि क्षम्यताम्, इतोपि एकं वक्तव्यं मया तदा, इत्युक्ते किमर्थम् अत्र पक्षासिद्धः प्रथमं चिन्तितं, साध्यासिद्धिः इति द्वितीयं चिन्तितम् इति चेत् अनुमानपरिशीलक्रमः इति स्प्रेड्शीट् तत्र कः क्रमः अस्ति तस्मिन्नेव क्रमे, तर्हि तदपि अहम् अत्र लिखामि. पक्षासिद्धिः इति तृतीयप्रश्नः तत्र.
आम् सत्यं. साध्यासिद्धिः,
साध्यासिद्धिः इति चतुर्थप्रश्नः.
पक्षे साध्याभावः सर्वदा भवति,
सर्वदा भवति वा इति इति प्रश्नः अस्ति खलु, तदेव पञ्चमप्रश्नः.
पञ्चमप्रश्नः हेत्वसिद्धिः षष्ठमप्रश्नः.
हा हा एकनिमिषम्.
पक्षधर्मता इति सप्तमः.
अस्तु हेत्वासिद्धिः इति क्षम्यता, हेत्वासिद्धिः इति षष्ठप्रश्नः.
उदाहरणं उदाहरणपरिशीलनम् इति प्रथमम् अस्ति.
तत् प्रथमप्रश्नः खलु. सत्यं.
प्रथमः.
हा
पक्षधर्मता इति सप्तमम्.
पक्षधर्मता इति सप्तमप्रश्नः. अन्वयसहचाराभावः इति 8.1 खलु.
8.1
व्यतिरेकसहचाराभावः इति 8.2. व्यतिरेकव्यभिचारः इति 8.3.
नवमः अस्ति साध्याभाव साधकहेतुमुत्पक्षः.
तत्तु नवमप्रश्नः अस्ति. तदनन्तरं सोपाधिकहेतुः इति दशमः. तर्हि तदेव अत्र एतादृशं मया स्थापितमस्ति.
तदेव क्रमः. सत्यम्.
अस्तु तर्हि पक्षासिद्धः नास्ति इति सिद्धं, पक्षासिद्धिः नास्ति, साध्यासिद्धिः नास्ति, तर्हि साध्याभावत् पक्षः इत्युक्ते सर्वदा भवति वा इति चिन्तनीयं. तत् तद्भवति खलु अत्र.
आम् सर्वदा भवति.
उष्णत्वं वह्नौ सर्वदा भवति, स्वरूपमस्ति इति कृत्वा सर्वदा भवति. अतः एतद् उदाहरणं बाधायाः उदाहरणमपि भवितुमर्हति. बाधस्य उदाहरणमपि भवति.
बाधहेत्वाभासस्य उदाहरणम्.
हा बाधहेत्वाभासस्य उदाहरणम् अस्तु. तत्र अहम् एक्स् स्थापितवान्.
अस्तु अस्तु
अस्तु अग्रे.
एक्स् इन्स्टेड् आफ् एक्स् अहं चिन्तयामि अत्र रैट् इति करोति चेत् सम्यक् अवगच्छामः. अधुना किं भाति इत्युक्ते
लिखामि
आम् इति समीचीनम्. आम्
बाधः अस्ति वा. आम्
आम् आम् अस्तु. हेत्वा सिद्धिः हेतुः असिद्धः वा. अत्र द्रव्यत्वम् इति हेतुः, तर्हि हेत्वा सिद्धिः नास्ति.
सत्यं.
द्रव्यत्वम् इति प्रसिद्धः.
अस्तु अग्रे.
पक्षधर्मता सिद्धिः, द्रव्यत्वं पक्षे अस्ति, हेतुः पक्षे अस्ति, द्रव्यत्वं वह्नौ अस्ति, अतः पक्षधर्मता असिद्धिः नास्ति. पक्षधर्मता सिद्धिः नास्ति. हा डेश्. अन्वयसहचारः. अस्तु यत्र द्रव्यत्वं तत्र अनुष्णत्वम् इति अन्वयसहचारः. यत्र द्रव्यत्वं तत्र अनुष्णत्वं, यथा अत्र जलमिति तु अस्ति एव. अतः अन्वयसहचारः जातः.
अन्वयसहचार अभावः अस्ति वा इति मया पृष्टम्.
क्षम्यतां, हा अभावः नास्ति, अभावः नास्ति.
अतः डाश् खलु?
डाश्, आं सत्यं.
हा
व्यतिरेक
यत्र द्रव्यत्वं तत्र अनुष्टत्वं, यथा किमुक्तं?
यथा जलम् इति एव अत्र.
यथा जलं, समीचीनं.
अन्यत्किमपि हा व्यतिरेकसहचारः यत्र द्रव्यत्वाभावः तत्र अनुष्णत्वम् इति, यत्र द्रव्यत्वाभावः तत्र अनुष्णत्वं, यथा द्रव्यत्व अभावः.
न न, यत्र अनुष्णत्वाभावः व्यतिरेकसहचारः खलु, साध्याभावः तत्र हेत्वाभावः.
हा सत्यं सत्यं, यत्र अनुष्णत्वाभावः इत्युक्ते उष्णत्वं, तत्र द्रव्यत्वं खलु.
न, द्रव्यत्व अभावः व्यतिरेकसहचारः.
व्यतिरेक, तत्र क्लेशः भवति. अस्तु, यत्र साध्याभावः तत्र हेत्वाभावः इति भवेत्. सत्यं, यत्र उष्णत्वं तत्र द्रव्यत्व अभावः, द्रव्यत्व अभावः यत्र अस्ति तत्र उष्णत्वम्. आम्, अत्र तेजसि इति अपि द्रव्यत्वमेव खलु, अतः अतः तद् न भवति व्यतिरिकस्य.
उष्णत्वं केवलं कुत्र भवति महोदय, तादृशं चिन्तयतु.
हा, उष्णत्वं तेजसि एव भवति, अपि च तत् द्रव्यमेव, अतः व्यतिरेकसहचारः न भवति. इत्युक्ते व्यतिरेकसहचार अभावः भवति, व्यतिरेकसहचार अभावः भवति इति आगच्छति.
किन्तु न, अत्र न वक्तुं शक्यते.
हा, न वक्तुं शक्यते इति अपि.
इति कृत्वा किम् अत्र हेतुः, कीदृशहेतुः अस्ति?
हेतुः
यत्र व्यतिरेकव्यभिचारः न वक्तुं शक्यते.
केवलान्वयि, हा केवलान्वयि,
हा
केवलान्वयि, सत्यं.
तर्हि केवलान्वयि इति अत्र लिखामि.
हा अस्तु अस्तु,
केवलान्वयि
न भवति
हेतुः खलु इति कृत्वा अत्र न भवति. केवलान्वयि हेतुः अस्ति इत्युक्ते यत्र यत्र अनिष्टत्वाभावः तत्र तत्र द्रव्यत्वाभावः यथा इति उदाहरणमेव न वक्तुं शक्यते.
सत्यं,
व्यतिरेकविचार व्यतिरेकसहचारस्य उदाहरणं न वक्तुं शक्यते, तदेव हि केवलान्वयी हेतुः खलु. अतः केवलान्वयी हेतुः. अस्तु, अग्रे.
हा अग्रे, व्यतिरेकव्यभिचारः. अस्तु, तत्र यत्र साध्याभावः तत्र हेतुः, यत्र अनुष्णत्वाभावः.
क्षम्यतां महोदय, इतोपि मया किञ्चित् वक्तव्यमस्ति, स्प्रेड्शीट् प्रथमवारं पश्येम इति कृत्वा. अत्र पश्यन्तु, पक्षासिद्धिः अस्ति चेत् तदेव आश्रयासिद्धिः. साध्यासिद्धिः इत्युक्ते कोऽपि गगनारविन्दं साधयितुम् इच्छति चेत् तत्र साध्यासिद्धिः भवति खलु.
सत्यं,
किन्तु साध्यासिद्धिः इति हेत्वाभासः एव न चिन्तितः अस्ति. तस्य नाम किम्? यदि साध्यासिद्धिः अस्ति तर्हि तत्र हेत्वाभासस्य नाम किम् इति न वक्तुं शक्यते. अतः उपरि न किमपि न लिखितम्, ई वन् इत्यत्र किमपि न दृश्यते.
सत्यम्.
एवं हेत्वासिद्धिः यदि गगनारविन्दत्वात् इति गगनारविन्दम् इति अप्रसिद्धहेतुं स्वीकृत्य कोऽपि किमपि साधयितुमिच्छति चेत् तत्र हेत्वासिद्धिः भवति. किन्तु तादृशहेत्वासिद्धेः हेत्वाभासस्य नाम किम् इति न चिन्तितम्. अत्र न्यायकोशः इति पुस्तकं मम कृते अस्ति, तत्र अस्माकं जालपुटे स्थापयित्वा अद्यैव लिङ्क् प्रेषयिष्यामि.
अस्तु अस्तु.
तत्र हेत्वासिद्धिः इत्यत्र किञ्चित् दत्तमस्ति, किन्तु हेत्वासिद्धिः इत्युक्ते हेतोः असिद्धिः इति न उक्तम्. हेतुतः अवच्छेदकः असिद्धिः. इति उक्तम्
इति वा
हेतुता हेतुतायाः अवच्छेदकः अवच्छेदकः इत्युक्ते हेतु हेतौ कश्चन धर्मः यद्भवति स च धर्मः असमीचीनः अस्ति चेत् इत्युक्ते तत्र पुस्तके अस्माभिः लिखितं पठितमासीत् खलु काञ्चनमय इति किमपि
काञ्चनमयपर्वतः
काञ्चनमयपर्वतः इति तर्हि अत्र पर्वतः तु असिद्धः नास्ति
सत्यं
किन्तु काञ्चनमयपर्वतः अपि असिद्धः नास्ति किन्तु काञ्चनमयपर्वतः इति हेतुः समीचीनं नास्ति किमपि साध्यं साधनार्थं काञ्चनमयहेतुः समीचीन उदाहरणं नास्ति तादृशमेव तत्र हेत्वासिद्धिः इति तत्र लिखितम् किन्तु नवसु हेत्वाभासेषु कीदृशी इति अत्र न लिखितमस्ति एतत् सर्वम् अहं केनापि प्रौढेन सह चिन्तयित्वा अत्र पूरयामि किन्तु किम् अस्ति इति एवम् अत्र इदानीं यत् चिन्तनम् अस्ति व्यतिरेकसहचाराभावः अस्ति चेत् तत्र तस्य नाम किं तत्र तदपि असाधारणसव्यभिचारः वा इत्युक्ते लक्षणं पश्यतु तर्कसङ्ग्रहक अत्र सेकेण्ड् रो मध्ये किं मया स्थापितं तर्कसङ्ग्रहकारेण यद् लक्षणं कृतं तद् मया लिखितं तत्र आश्रयासिद्धिः इत्यस्य लक्षणं किम् इति चेत् तर्कसङ्ग्रहकारेण किमपि न उक्तं पक्षासिद्धिः इति मया एव लिखितम् बाधः इत्यत्र साध्याभावः प्रमाणान्तरेण निश्चितः यस्य इति तेन लक्षितम्
सत्यं
किन्तु मया किं कृतं साध्याभावत् पक्षः अस्ति चेत् तत्र बाधः भवति इति तदनन्तरं पक्षधर्मतासिद्धिः इति मया लिखितं तदेव स्वरूपासिद्धिः तस्यापि लक्षणं न उक्तं ग्रन्थकारेण अपि च असाधारणसव्यभिचारः कः इति चेत् सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिः अत्र इदानीं पश्यतु तद् लक्षणं स्वीकृत्य परिशीलनं कुर्मश्चेत् तत् परिशीलनं करोति वा सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिः इति प्रकृत उदाहरणं परिशीलयति वा
आम् अस्तु सर्वसपक्षविपक्षव्यापक्ष
इत्युक्ते किं
सपक्ष इत्युक्ते वयं दृष्टवन्तः पक्ष
सपक्षः इत्युक्ते साध्यप्रकारनिश्चयविशेष्यः
साध्यप्रकारनिश्चयविशेष्यः
इत्युक्ते यस्मिन् साध्यमस्ति सपक्षः इत्युक्ते साध्येन सह वर्तते
साध्येन सह वर्तते सत्यं स्वपक्षे साध्यमस्ति इति
हा
अविपक्षः इत्युक्ते पक्षे साध्यं नास्ति सत्यं
हा पक्षे तर्हि इदानीं सर्वसपक्षविपक्षव्यावृत्तः इत्युक्ते किम्
असाधारणव्यभिचारः चर्चितं तदपि
पक्षमात्रवृत्तिः कः अत्र
पक्षमात्रवृत्तिः इत्युक्ते साध्यं केवलं पक्षे एव लभ्यते चेत्
न न
इत्युक्ते अनुष्णत्वं
महोदय अत्र इदानीम् उदाहरणस्य विषये मा चिन्तयतु पक्षमात्रवृत्तिः अत्र वृत्तिः कः हेतुः
हा वृत्तिः हेतुः सत्यम् अत्र लिखितं
असाधारणसव्यभिचारः हेतुः अस्ति खलु
ओ अस्तु अस्तु तर्हि अस्तु सपेक्षे अपि च विपक्षे व्यावृत्त इत्युक्ते तयोः मध्ये विद्यमानः इति अर्थः
न व्यावृत्तः इत्युक्ते नास्ति इति अर्थः
तयोर् हा तयोः अविद्यमानः सत्यं तयोरविद्यमानः नास्ति अस्तु अस्तु अत्र वयं दृष्टवन्तः शब्दः अनित्यः शब्दत्वाद् इति उदाहरणं
वदति
पक्षे अस्ति विपक्षे नास्ति सपक्षे भवति इति वयं दृष्टवन्तः
न न न इति नास्ति
सद्हेतुः इति तादृशमस्ति
न न महोदय अत्र शब्दत्वात् इति हेतुः शब्दे इदानीं शब्दः शब्दत्वात् मध्ये यत्किमपि भवतु साध्यं शब्दः अनित्यः शब्दत्वात् इति एव उदाहरणं स्वीकुर्मः
तत्र केवलं शब्देव लभ्यते
तर्हि इदानीं सपक्षः इत्युक्ते पक्षः न स्वीकरणीयः पक्षं विहाय
पक्षं विहाय अन्यत्र न लभ्यते
सपक्ष सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिः इत्युक्ते तादृशहेतुः यत् सपक्षे अपि न लभ्यते सपक्षः इत्युक्ते किं यत्र साध्यं लभ्यते
तत्र हेतुः न लभ्यते अस्तु अस्तु केवलं साध्यमेव अस्ति
यत्र निश्चितसाध्यवान् निश्चितसाध्यवान् सपक्षः अस्ति
सत्यं
तस्मिन् हेतुः न भवेत् निश्चितसाध्य अभाववान्
पक्षः
तस्मिन्नपि हेतुः न भवेत्
ओ अस्तु अस्तु इत्युक्ते निश्चयेन
पक्षे एव भवेत्
सत्यम् अधुना अवगच्छामि यत्र निश्चयेन अनुष्णत्वम् इति साध्यं यस्मिन् कस्मिन् पक्षे अपि अस्ति तत्रापि हेतुः नास्ति अपि च यत्र यस्मिन् पक्षे निश्चयेन अनुष्णत्वम् इति साध्यं नास्ति तत्रापि हेतुः नास्ति परन्तु केवलं पक्षे एव अस्ति तदेव पक्षमात्रवृत्तिः
पक्षमात्रवृत्तिः तस्य अर्थः कः तदेव इदानीं असाधारणसव्यभिचारः इत्यस्य लक्षणत्वेन ग्रन्थकारेण उक्तम्
उक्तं
किन्तु अत्र अन्वयसहचाराभावः इत्युक्ते यत्र यत्र हेतुः अस्ति तत्र साध्यम् इति न लभ्यते चेत् इति मया परिवर्तितं तर्हि अत्र किञ्चित् भेदः अस्ति तर्कसङ्ग्रहकारेण कथं चिन्तितं मया किं चिन्तितम् इत्यत्र किञ्चित् भेदः अस्ति
अस्तु सत्यं
भवतु अत्र केवलम् इदानीम् अस्माकं क्रमानुसारेणैव चिन्तनं कुर्मः तदनन्तरम् एतद् अभ्यासमपि कृत्वा तदनन्तरं समन्वयः कुर्मः
अस्तु
तदा समापनं भवति अस्माकं चिन्तनम् अस्तु न अत्र कथं लिखितम् इति मया प्रदर्शितम् अस्ति तर्हि इदानीं व्यतिरेकसहचारः अभावः अत्र केवलान्वयहेतुः अस्ति इति कृत्वा व्यतिरेकसहचार अभावः अस्ति चेदपि क्लेशः नास्ति हेतुः केवलान्वयहेतुः अस्ति इति कृत्वा केवलान्वयित्वं कथं सम्पादितम्
अत्र व्यतिरेक उदाहरणं न लभ्यते व्यतिरेकव्याप्
व्यतिरेक उदाहरणं न लभ्यते इति कृत्वा समीचीनं तर्हि इदानीं व्यतिरेकव्यभिचारः भवति वा इति चिन्तयतु
व्यतिरेकव्यभिचारः यत्र साध्याभावः इत्युक्ते यत्र अनुष्णत्व अभावः इत्युक्ते उष्णत्वं तत्र हेतुः तत्र द्रव्यत्वं यत्र उष्णत्वं तत्र द्रव्यत्वम् अत्र व्यतिरेक व्यभिचारः एव तस्य अभावः इति नास्ति
खलु
यत्र उष्णत्वं तत्र द्रव्यत्वं
सिद्ध्य यत्र उष्णत्वं तत्र द्रव्यत्वं यथा
यथा वह्निः इति परन्तु तत्तु
तप्तायपिण्डः
तप्तायपिण्डः इत्यपि अस्ति आं सत्यं
पक्षभिन्नस्थलं वक्तुं शक्यते यत्र तत्र तप्तायपिण्डे द्रव्यत्वमपि अस्ति उष्णत्वमपि अस्ति
आमां महानसम् अपि अस्ति तप्तायपिण्डः अपि अस्ति
खलु
आम्
तत्तायः पिण्डे तर्हि अस्मिन् उदाहरणे बाधः अपि सिद्धः साधारणसव्यभिचारः अपि सिद्धः अस्तु अग्रे सत्प्रतिपक्षः अस्ति वा इति चिन्तयतु
साध्याभावसाधकहेतुमत् पक्षः
त्यजतु इदानीं तत्र लक्षणं त्यजतु अस्माकं प्रश्नः साध्याभावसाधकहेतुमत् पक्षः
तदेव साध्याभावसाधकहेतुमत् पक्षः अस्तु अनुष्णत्व अभावसाधकहेतुमत् अनुष्णत्व अभावसाधकद्रव्यत्ववत् पक्षः पक्षः तु वह्निः वह्निः इति द्रव्यत्ववत् अस्ति परन्तु अनुष्णत्व अभावः इत्युक्ते उष्णत्वसाधकद्रव्यत्ववत् पक्षः अस्ति वह्निः इति अर्थः सत् प्रतिपक्षः अस्ति
न न अत्र इदानीं वह्निः इति प्रकृतपक्षः न स्वीकरणीयः अन्यत् किमपि स्वीकरणीयः अस्ति
अस्तु अस्तु एतत्
साध्य अभावस्साधकं हेत्वन्तरम् अत्र उदाहरणं किमासीत् शब्दः नित्यः श्रावणत्वात् इति खलु शब्दः नित्यः श्रावणत्वात् यथा वेदाः शब्दः अनित्यः कार्यत्वात् यथा घटः तर्हि अत्र हेत्वन्तरं कार्यत्वं घटे अस्ति घटे साध्य अभावः अस्ति तर्हि तादृशचिन्तनम् अत्र करणीयं साध्य अभावसाधकहेतुमत्पक्षः अत्र साध्यभावसाधकहेतु साध्याभावसाधक अत्र किञ्चित् अत्र परिशीलनं कुर्मः यत् मया लिखितं तत् समीचीनं वा इति आशयः कः इति चेत् अत्र पश्यतु शब्दः नित्यः श्रावणत्वात् यथा वेदाः शब्दः अनित्यः कार्यत्वात् यथा घटः अस्तु तर्हि अत्र पक्षः एव स्वीकरणीयः खलु प्रकृतपक्षः एव स्वीकरणीयः
प्रकृतपक्ष एव सत्प्रतिपक्षः अस्ति वा इति
साध्य अभाव साध्याभावसाधक हेत्वन्तरवत् इति इति लेखनीयं प्राय हेतुमत् इति हेत्वन्तरवत् खलु
हेत्वन्तरवत्
हेत्वन्तरवत् पक्षः अस्तु समीचीनं साध्याभावसाधक हेत्वन्तरवत् पक्षः अस्ति चेत् सदस्य वा इति चिन्तयतु इदानीं
अनुष्णत्वभावसाधकजल द्रव्यत्ववत् पक्षः
न न हेत्वन्तरं द्रव्यत्वमिति न चिन्तनीयं भिन्नहेतुः चिन्तनीयमस्ति
हेतुः
हेत्वन्तरं चिन्तनीयम्
उष्णत्वसाधक
महोदय अत्र किं साधनीयमिति एकवारं वदतु पक्षे वह्नौ
अनुष्णत्वम् इति साधनीयम् अत्र अनुष्णत्वम् इति साध्यं
साध्य अभावसाधकम् उष्णत्वं साधनीयं खलु
हा उष्णत्वम् अनुष्णत्व अभाव
वह्नौ उष्णत्वं हेत्वन्तरेण साधनीयं तादृशहेतुः अस्ति वा इति चिन्तयतु
हा 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 वह्नौ उष्णत्व
वह्नौ उष्णत्वम् अस्ति इति अन्येन हेतुना साधनीयं
साधनीयं तर्हि तेजः अस्ति इति अतः तेजः अस्ति अतः वह्निः उष्णः इति
न तेजः इति द्रव्यमस्ति खलु
इति द्रव्यमस्ति समीचीनं तर्हि हेतुः द्रव्यं न भवेत् वा
न वह्निः अपि च तेजः अनयोः मध्ये कः भेदः अस्ति
अस्तु
वह्निः अनुष्णत्ववान् द्रव्यत्वात् द्रव्यात् इति न लिखितं द्रव्यत्वात् इति लिखितम् अत्र द्रव्यात् इति यदि यदा कदापि न लेखनीयं किमर्थम् इत्युक्ते द्रव्यम् इति वह्निः इति द्रव्यस्य एव एकम् उदाहरणमस्ति
एकः भागः सत्यम्
इति कृत्वा तादृशं न वक्तव्यम् इत्युक्ते तेजात् इति वदति चेत् तेजसः इति वदति चेत् वह्निः इति तेजसः एव एकम् उदाहरणं खलु अतः तादृशं न वक्तव्यं तेजत्वात् इति वक्तुं शक्यते
तेजत्वात् हा सत्यं तेजः न तेजत्वात् सत्यं तस्मिन् यः धर्मः
तेज तेजस न तेजत्वात् नास्ति तेजसत्वं वा
तेजसत्वं
तेजस् इति सकारान्त नपुंसकलिङ्गमस्ति खलु तेजसत्वात्
तेजवत्वात्
तेजवत्त्वं नास्ति
नास्ति
यस्मिन् तेजः अस्ति तत् तेजवान् भवति तेजवत्त्वं तस्मिन् अस्ति तेजसत्वं यथा घटत्वं घटे तदा तेजसत्वं तेजसि तेजसत्वात् तर्हि वह्निः उष्णत्ववान् तेजसत्वात् इति वदामश्चेत् अत्र तेजसत्वं हेत्वन्तरं भवति खलु वह्नौ उष्णत्वं साधयितुं तेजसत्वम् अतः अत्र सत्प्रतिपक्षः अपि वक्तुं शक्यते खलु
तादृशवह्निः अस्ति एव अतः सत्यं
हा तेजसत्वम् अस्ति इति कृत्वा तर्हि तेजसत्वम् इति हेतुं स्वीकृत्य वह्नौ उष्णत्वं साधयितुं शक्यते इति कृत्वा एतद् उदाहरणं सत्प्रतिपक्षस्यापि उदाहरणं भवितुमर्हति अस्तु व्याप्यत्वासिद्धिः विषये चिन्तयतु निमिषद्वयेन पूरयामः तर्हि इदानीं सोपादिकहेतुः अस्ति वा इति चिन्तनीयं
हेतुः सोपादिकमस्ति वा
सोपादिकहेतुः नाम किम्
अत्र लिखितं साध्यव्यापकत्वे सति साधन अव्यापकत्वम् उपाधित्वम्
उपाधित्वं खलु
आम् आम् तेन सह
अर्थः कः
साध्येन व्यापकः साधनस्य अव्यापकत्वम्
किमर्थं साधनस्य अव्यापकत्वम्
साधना अव्यापकत्वं साधनेन अव्यापकत्वम् इति एव भवति वा साध्येन व्यापकत्वं
साध्येन व्यापकः व्याप्यः भवेत्
परन्तु
साधनेन
अव्यापकत्वं भवेत् अव्यापकः भवेत्
इत्युक्ते साधन अभावेन व्यापकः भवेत्
साधन अभाव
अत्र आर्द्रेन्द्रसंयोगः इति दृष्टं खलु
हा इति दृष्टं पर्वतः
यत्र वह्निः अस्ति साध्यम् अत्र साध्यं किं साध्यव्यापकत्वे सति साधन अव्यापकत्वं पर्वतः आर्द्रेन्द्र उपाधिकधूमवान् वह्निमत्वात् अत्र पर्वतः धूमवान् वह्निमत्वात् अत्र साध्यमस्ति धूमः साधनमस्ति वह्निः तर्हि इदानीम् आर्द्रेन्द्रसंयोगः इति उपाधिः अस्ति
तेन अव्यापकः पर्वतः अस्ति परन्तु
न न पर्वतः विषये किमर्थं चिन्तयति
तर्हि
आर्द्रेन्द्रसंयोगः कीदृशः धूमेन व्याप्तः अस्ति इत्युक्ते साध्येन व्याप्यः अस्ति यत्र यत्र धूमः न यत्र यत्र आर्द्रेन्द्रसंयोगः तत्र तत्र धूमः यत्र यत्र धूमाभावः तत्र तत्र आर्द्रेन्द्रसंयोग अभावः इति कृत्वा प्रकृतसाध्यं यद् धूमः अस्ति तेन व्याप्यः अस्ति आर्द्रेन्द्रसंयोगः अपि च प्रकृतहेतुः वह्निः तत्र वह्नि अभावेन व्याप्तः इत्युक्ते इदानीं वह्नि अभावः इति स्वीकरोति चेत् यत्र यत्र आर्द्रेन्द्रसंयोगः तत्र तत्र वह्नि अभावः यत्र यत्र वह्नि अभावाभावः तत्र तत्र आर्द्रेन्द्रसंयोगः आर्द्रेन्द्रसंयोगाभावः यथा तथा एव पिण्डः वन्यभावाभावः इत्युक्ते वह्निः तप्ता एव पिण्डे वह्निः अस्ति किन्तु आद्यसंयोगः नास्ति इति कृत्वा तदा तदर्थम् एतादृशं लिखितं साधन साध्यव्यापकत्वे सति साधनम् अव्यापकत्वम् इत्युक्ते साध्येन व्याप्यं भवति उपाधिः साधनेन व्याप्यं न भवति उपाधिः
तत्र साधनमिति हेतुः इति एव
साधनमिति हेतुः साध्य अभावेन इति प्रायः न वक्तव्यं साधन अभावेन इति प्रायः न वक्तव्यं
न वक्तव्यं
साध्येन व्याप्यः नास्ति किन्तु साधनेन व्याप्यः अस्ति क्षम्यतां साध्येन व्याप्यः नास्ति साधन एकनिमिषं साध्येन व्याप्यः अस्ति
अस्ति
किन्तु साधनेन व्याप्यः नास्ति
नास्ति
इति उपाधिः खलु अस्तु चिन्तयति वा अत्र
अस्तु अस्तु अत्र साध्येन व्याप्यः अस्ति इत्युक्ते अनुष्णत्वेन व्याप्यः अस्ति
व्याप्येन अस्ति अस्ति इति किमपि उपाधिः चिन्तनीया
चिन्तनीया हा परन्तु द्रव्यत्वेन व्याप्यः न भवेत् न भवेत्
तादृशं चिन्तनीयं
तादृशम् अनुष्णत्वेन व्याप्यः अस्ति
न तस्मात् पूर्वम् अन्यत् चिन्तयतु द्रव्यत्वम् इति बृहत् अस्ति खलु
आमां सत्यं
द्रव्येन सप्तपदार्थेषु द्रव्यं विहाय अन्यत् किमपि स्वीकर्तव्यं
आम् प्रथमं तु तदेव स्वीकरणीयं
खलु
आम् आम् सत्यं सप्तपदार्थेषु
तादृश उपाधिः स्वीकरणीया यत् द्रव्यत्वेन व्याप्तः न भवेत्
तर्हि गुणः
गुणः वा क्रिया वा यत्किमपि स्वीकर्तव्यम्
आम् आम् सत्यं
तर्हि रूपम् इति स्वीकुर्मः
रूपं हा रूपं हा तर्हि रूपमिति द्रव्यत्वेन अव्यापकम् अस्ति
अव्याप्तमस्ति अव्यापकं
नास्ति हा अव्याप्तमस्ति सत्यं परन्तु अनुष्णत्वेन व्याप्यं नास्ति
अनुष्णत्वेन व्याप्यं वा अनुष्णत्वं
हा अनुष्णत्वं साध्यं साध्यव्याप्यं खलु
चिन्तयतु यत्र यत्र रूपं तत्र तत्र
अनुष्णत्वम् इति भवेत् इति नास्ति
इति भवेत् यथा
यत्र यत् रूपं तत्र तत्र अनुष्णत्वं यथा
यत्र रूपं तत्र अनुष्णत्वं यथा घटः खलु
यथा घटः
घटे रूपमस्ति अनुष्णत्वमपि अस्ति तर्हि अन्वयव्याप्तिः सिद्धा इदानीं तस्मात् अग्रे यत्र यत्र अनुष्णत्वाभावः उष्णत्वं
तत्र तत्र रूप
यत्र उष्णत्वं तत्र रूपाभावः
तादृशं तु
रूपं विना उष्णत्वं यदा यत्र कुत्रापि भवति वा
न न भवति सर्वत्र
न भवति खलु
न भवति केवलान्वयी एव
इति कृत्वा अत्र व्याप्यत्वासिद्धिः नास्ति इति वक्तव्यम् बुध्यते खलु
आम् आम् तत्र उपाधि
महोदय एतत् पुनः वदतु महोदय व्याप्यत्वसिद्धिः न बुद्धम्
अस्तु किं कुर्मः भगिनी अग्रिमे वर्गे इदानीं समयः जातः इति कृत्वा अग्रिमे वर्गे इतः आरभ्य चिन्तनं कुर्मः किन्तु अस्य अभ्यासस्य आशयः कः इति चेत् अस्माभिः अत्र वह्निः अनुष्णत्ववान् द्रव्यत्वात् इति उदाहरणं तस्य उदाहरणत्वेन पठितम् इति चेत् बाधस्य उदाहरणत्वेन अस्माभिः पठितं किन्तु तत्र केवलं बाधः एव हेत्वाभासः इति नास्ति अत्र साधारणसव्यभिचारः अपि वक्तुं शक्यते सत्प्रतिपक्षः अपि वक्तुं शक्यते बाधः अपि वक्तुं शक्यते व्याप्यत्वासिद्धिः अस्ति वा न वा इत्यत्र प्रायः नास्ति किन्तु अग्रिमे वर्गे इतोपि चिन्तनं कृत्वा एतादृशं प्रत्येकम् उदाहरणं स्वीकृत्य एकवारं चिन्तयेत्
समीचीनं
अस्तु सर्वेभ्यो नमस्कारः धन्यवादश्च